चिंतामणि प्रकर सदमसु कल्पवृक्षलक्षावृतेषु सुरभिरभिपालयन्तम् लक्ष्मीसहस्रशतशतं रमा सेव्यमानम् गोविन्दम् आदिपुरुषं तमाहं भजामि वेणुं कन्वन्तं अरविन्ददलायताक्षम् वराहावतं समर्पिताम्बुदसुन्दराङ्गम् कन्दस्वकोटिकमनीयविशेषशोभम् गोविन्दम् आदिपुरुषम् तमाहं भजामि आलोलचन्द्रकलश बलमालबंसी रत्नांगदं प्रणयखेदी कलाविलासम् श्यामं त्रिभङ्गललितं नियताप्रकाशम् गोविन्दम् आदिपुरुषम् गोविन्दम् आदिपुरुषम् तमहं भजामि गोविन्दम् आदिपुरुषम् तमहं भजामि चिन्तामणि प्रकरसदमसु कल्पवृक्षलक्षावृतेषु सुरभिरभिपालयन्तम् लक्ष्मीसहस्रशतसंभ्रम सेव्यमानम् गोविन्दम् आदिपुरुषम् तमाहं भजामि अङ्गायस्य सकलेन्द्रियवेत्तिमन्ति पश्यन्ति पान्ति कलयन्ति चिरं जगन्ति अङ्गानि यस्य सकलेन्द्रियवेत्तिमन्ति पश्यन्ति पान्ति कलयन्ति चिरं जगन्ति आनन्दचिन्मयसदो जलविग्रहस्य गोविन्दम् आदिपुरुषम् समाहं भजामि गोविन्दम् आदि ఆది పురుషం తమాహం భజామి గోవిందం ఆది పురుషం తమాహం భజామి అనంతరూపం ఆద్యం పురాణ పురుషం నవజౌవనంచేసు దుర్లభ అదూర్లభయాత్మభక్త భక్త గోవిందం ఆది పురుషం తమాహం భజామి చింతామణి ప్రసర కర్మసు కల్పవృక్షలక్షాభితేషు సురభీరభి పాలయంతం ప్రకరకర్మసు కల్పవృక్షలక్షాభితేషు శివీరభిపాలయంతం లక్ష్మీసహసమాసేమానం గోవిందం ఆది గోవిందం ఆది పురుషం తమాహం భజామి గోవిందం ఆది పురుషం తమాహం భజామి పంచాశు కోటి శతవత్స సంప్రగమ్య వాయోరథాపి మనసో మునిపుంగవానాం స్వస్తిర ప్రవదసీమ్న అభిచింత్వసత్తి గోవిందం ఆది పురుషం తమాహం భజామి గోవిందం ఆది పురుషం తమాహం భజామి ఏక పశౌ రచయతం జగదండ కోటి జశక్తిరస్తి జగదన్న జగదంతం ఏక పశౌ రచయతం జగదన్న కోటి గచ్చత్తి జగదన్నయాజదంతం అన్నాంతరక్షం పరమాంతరక్షం గోవిందం ఆది పురుషం గోవిందం ఆది పురుషం తమాహం భజామి గోవిందం ఆది పురుషం తమాహం భజామి చింతామణి कर कदम कल्प वृक्षापालयन्तम् लक्ष्मी सहस्र सत संभ्रम शेषमानम् गोविंदम् आदिपुरुषम् समाहनयामि गोविंदम् आदिपुरुषम् समाहनयामि गोविंदम् आदिपुरुषम् आनन्द चिन्मय रस प्रतिभाविता भी ताभी जयवनियनुपस्तया कलाभी आनन्द चिन्मय रस प्रतिभाविता भी ताभी जयवनियनुपस्तया अखिलात्मभूतो गोविन्दम् आदिपुरुषम् तमाहं भजामि गोविन्दम् आदिपुरुषम् तमाहं भजामि कामनि प्रकरचद्मसु कल्पवृक्ष लक्षावृतेषु सुरभिरवि पालयन्तम् लक्ष्मी सहस्रशतम् संभ्रम क्षेममानम् गोविन्दम् आदिपुरुषम् समाहम् श्रीमाञ्जनश्रितभक्तिविलोचनेन सन्तक्षदैव हृदयेषु विलोकयन्ति श्रीमाञ्जनश्रितभक्तिविलोचनेन सन्तसदैव हृदयेषु विलोकयन्ति यं श्यामसुन्दरम् अचिन्तगुणस्वरूपम् गोविन्दम् आदिपुरुषम् भजामि गोविन्दम् आदिपुरुषम् समासं भजामि रामादिमुक्तिशुकलानियमेन तिष्ठन् नानावतारमकरद्भुवने सुकिन्तु रामादिमुक्तिशुकला नियमेन तिष्ठन् नानावतारमकर भुवनेषु किन्तु कृष्णस्य समभवा परामसुमान् गोविन्दम् आदिपुरुषम् गोविन्दम् आदिपुरुषम् समाहं भजामि प्रकर चलम कल्प वृक्षण चावृतेषु सुरभिरभिपालयन्तम् लक्ष्मी सत्सत संहमस्ते पमानम् गोविन्दम् आदिपुरुषम् गोविन्दम् आदिपुरुषम् तमहं भजामि गोविन्दम् आदिपुरुषम् तमहं यस्य प्रभाप्रभवतो जगदन्नकोटि कोटिश्रेष्ठवसुधादि विभूतिभिन्नम् तद्ब्रह्म निष्कलमनन्त्य मतेशभूतम् गोविन्दम् समाहं भजामि गोविन्दम् समाहं भजामि गोविन्दम् आदिपुरुषम् समाहं भजामि गोविन्दम् आदिपुरुषम् गोविन्दम् आदिपुरुषम् समहं भजामि माया हि यत् जगदन्नसूते त्रैगुण्यतदनिशयवेदविताजमाना माया हि यत्र जगदन्ना सतानि सुते त्रैगुण्यतदनिशय वेद विकारमाणाम् सत्तावलम्बी परसत्यम् विशूद्य सत्यम् गोविन्दम् आदिपुरुषम् सत्यावलम्बी परसत्यम् विशूद्य सत्यम् गोविन्दम् आदिपुरुषम् समाहम् प्रकरसदमस्तु लक्ष्मी सहस्रशतार्थम् रमसे पमानम् गोविन्दम् आदिपुरुषम् समाहम् आनन्दचिन्मयरसात्मतया मनस्सु जप्राणिनाम् प्रतिफलम् स्मरतामुपेत्य लीलायितेन भुवनानि जयत्रयस्यम् गोविन्दम् आदिपुरुषम् गोविन्दम् आदिपुरुषम् समहं भजामि गोविन्दम् आदिपुरुषम् तम कल्पवृक्षलक्षावृतेषु चिरभीरविपालयन्तम् लक्ष्मीसहस्रशतासं नमसेवमानं गोविन्दम् आदिशेषम्।